इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्त सेमवालः आदौ मुख्यवार्ताः नवदिल्ल्यां भारत अरब विदेशमन्त्रिणां द्वितीयम् उपवेशनं प्रचलति भारत यूरोप मुक्त व्यापार संधिना यूरोपीय संघं प्रति भारतस्य निर्यातः पञ्चवर्षेषु द्विगुणितं भवितुं शक्यते इति प्रोक्तवान् विदेशमन्त्री पीयूष गोयलः देशे 25 कोट्यधिकानि मृदा स्वास्थ्यपत्राणि कृषकेभ्य प्रदत्तानि मृत्तिकायां पोषक तत्वानां क्षयनिवारणार्थं 15-तमाब्दे एषा योजना समारब्धा आसीत् 49वां सूरजकुंड अंतर्राष्ट्रीय शिल्प महोत्सव स्थानीय से वैश्विक आत्मनिर्भर भारत इति विषयेन सह समारब्धः अपि च पुरुषाणां क्रिकेट क्रीडायां अद्य सायं तिरुवनन्तपुरम इत्यत्र पंचम्यां अंतिमायां च T20 अंतर्राष्ट्रीय क्रीडायां भारतीय क्रिकेट दलं न्यूजीलैंड दलेन सह क्रीडिष्यति विदेशमन्त्री डॉक्टर एस जयशंकरः अद्य उक्तवान् यत् आतंकवादं विरुध्य शून्य सहिष्णुता इति अपरिवर्तनीयः सर्वस्वीकार्यः मानदण्डः भवेत् नवदिल्ल्यां प्रवर्तमाने द्वितीय भारत अरब विदेशमन्त्रिणाम् उपवेशने स्वकीये प्रारम्भिक भाषणे डॉक्टर जयशंकरः अवदत् यत् आतंकवादस्य सर्वरूपाणि अभिव्यक्तिः च भारत अरब राष्ट्रयोः कृते सामान्या विभीषिका अस्ति पारसीमम् आतंकवादः विशिष्टरूपेण अस्वीकार्यः अस्ति यतः एषः अन्ताराष्ट्रियसम्बन्धानां कूटनीतेः च मूलसिद्धान्तानां उल्लङ्घनं करोति इति सः अकथयत् सः इत्यपि अवदत् यत् आतंकवादेन पीडितस्य समाजस्य स्वकीयायाः आत्मरक्षायाः मौलिकाधिकारः अस्ति तथा च प्रबुद्धसमाजः अवश्यमेव तस्य अधिकारस्य प्रयोगं करिष्यति सः अस्य वैश्विक प्रकोपस्य निवारणार्थम् अन्ताराष्ट्रिय सहयोगस्य सुदृढीकरणस्य आवश्यकतायाः च विषये अवधानं दत्तवान् डॉक्टर जयशंकरः अवदत् यत् ते एकस्मिन् महत्वपूर्णसमये तदा एकत्रीभवन्ति यदा विविधकारणैः वैश्विकव्यवस्थायां परिवर्तनं प्रचलति तथा च राजनीतिः अर्थशास्त्रं प्रौद्योगिकी जनसांख्यिकी च सर्वाः पूर्णतया सक्रियाः सन्ति जयशंकरः अवदत् यत् सूडान यमन लेबनान लीबिया इत्येतेषां देशानां स्थिति अपि सामूहिकरूपेण ध्यानं दातुं योग्या अस्ति सः अवदत् यत् सीरिया देशस्य घटनायाः दिशा अपि क्षेत्रस्य कल्याणाय महत्वपूर्णा अस्ति भारत यूरोप मुक्त व्यापार संधिना यूरोपीय संघं प्रति भारतस्य निर्यातः पञ्चवर्षेषु द्विगुणितं भवितुं शक्नोति इति विदेशमन्त्री पीयूष गोयलः प्रोक्तवान् श्रीगोयलवर्यः व्यापारिणः एमएसएमई संस्थाः स्टार्टअप संस्थाः उद्यमिनः च अन्ताराष्ट्रिय स्तरे गन्तुं ध्यानं दातुं च प्रार्थितवान् सामाजिक संजाल माध्यमेन लिखितानां लेखानां श्रृंखलायां प्रमुख राष्ट्रिय दैनिक पत्रिकाभिः सह स्वस्य साक्षात्कारं व्यञ्जयन् मन्त्रिवर्यः एतत् उक्तवान् श्रीगोयलः इत्यपि अकथयत् यत् कथं व्यापार व्यवहारः देशाय विभिन्न रूपेण लाभप्रदः भविष्यति सः अवदत् यत् भारत यूरोपीय संघ सन्धिः एका प्रबला FTA इति अस्ति या देशस्य संवेदनशील क्षेत्राणां रक्षणं कुर्वति भारतस्य कृते प्रमुखान् अवसरान् उद्घाटयिष्यति देशे 25 कोट्यधिकानि मृदा स्वास्थ्य पत्राणि कृषकेभ्य प्रदत्तानि मृत्तिकायां पोषक तत्वानां क्षय निवारणार्थं 15-तमाब्दे सर्वकारेण मृत्तिका स्वास्थ्य पत्र योजना समारब्धा गतवर्षस्य जुलाई मास पर्यन्तम् अस्याः योजनायाः अन्तर्गतं 93,000 अधिकेभ्य कृषकेभ्य प्रशिक्षण कार्यक्रमाः 6,00,000 अधिकाः क्षेत्र प्रदर्शन्यः 1,000 जनजागरण अभियानाः च आयोजिताः सन्ति सर्वकारः अवदत् यत् अनेन संतुलित पोषण प्रबन्धनस्य प्रोत्साहन क्षेत्रे योजनायाः परिमाणं व्याप्तिः च प्रतिबिम्बयते मृत्तिका स्वास्थ्य पत्रं प्रतिवर्षं द्विवर्षेषु प्रदीयते तथा च कृषकाणां कृते तेषां मृत्तिकायाः पोषकस्थिति विषयकं भौतिक रासायनिक स्थिति विषयकं च विस्तृतं ज्ञानं प्रयच्छति संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। उनचत्वारिंशत्तमः सूरजकुंड अंतर्राष्ट्रीय शिल्प महोत्सव अद्य सूरजकुंड क्षेत्रे आरब्ध। स्थानीय से वैश्विक आत्मनिर्भर भारत इत्यनेन विषयेन सह उपराष्ट्रपतिः सीपी राधाकृष्णन वर्यः अस्य शिल्प मेलकस्य उद्घाटनम् अकरोत्।
Uttar Pradesh, the heartland of Bharat, is a cradle of ancient civilization and artistic mastery. From the unique Jardoji of Lucknow, world-renowned Banarasi silk, the brassware of Moradabad, chinkari embroidery, Uttar Pradesh showcases a legacy where craftsmanship meets refined mind. These traditions are just crafts, and we never think it is just a craft. They are the stories woven in silk, etched in metal, and integrated with the history of this great nation.
इजिप्ट देशः अस्मिन् वर्षे अपि चतुर्थवारं सहभागी देशः अस्ति। एतदतिरिच्य उत्तर प्रदेशस्य मेघालयस्य च समृद्ध सांस्कृतिक लोककलानां च प्रदर्शनं मेलक परिसरे कृतमस्ति। शिल्प महोत्सवे राष्ट्रिय अन्ताराष्ट्रिय तन्तुवायैः शिल्पकारैः च 12 शततः अधिकानि आपणानि स्थापितानि सन्ति। 16 दिवसात्मकस्य शिल्प महोत्सवस्य समापन समारोहः अग्रिमे मासे 15 दिनांके भविष्यति। वित्तमंत्री निर्मला सीतारमणवर्या श्वः लोकसभायाम् आगामिसत्रस्य आय व्यय प्रपत्रं प्रस्तोष्यति। निम्नसभायाम् आय व्यय प्रपत्रस्य प्रस्तुतीकरणानन्तरम् आय व्ययिकस्य प्रतिलिपिः राज्यसभायां श्वः प्रस्तोष्यते। 1999-2000 पदभार ग्रहणात् आरभ्य श्रीमत्या सीतारमणवर्यया एतत् निरन्तरं नवमं आय व्ययिकं प्रस्तूयते। महिला बाल विकास राज्यमंत्री सावित्री ठाकुर न्यूयॉर्क नगरे संयुक्त राष्ट्र संघ मुख्यालये संयुक्त राष्ट्र संघस्य सामाजिक विकास आयोगस्य चतुष्षष्टितमे सत्रे भारतीय प्रतिनिधि संघस्य नेतृत्वं करिष्यति। अग्रिममासस्य 2 दिनांकात् आरभ्यमानं सत्रं सामाजिक समावेशनं समता कल्याणोन्मुख नीतयः चेत्यादिषु सामाजिक विकास विषयेषु अन्ताराष्ट्रिय सहयोगं प्रवर्धयितुं केन्द्रितम् अस्ति। स्वास्थ्य सेवा महानिदेशालयः अद्य सूचितवान् यत् एनईईटी पीजी इत्यस्य तृतीया परामर्श प्रक्रिया पुनः आरब्धा। सामाजिक संजाल माध्यमेन स्वास्थ्य सेवा महानिदेशालयः अवदत् यत् नूतनानां पंजीकरणानां सौविध्येन सह परामर्श प्रक्रिया पुनः आरब्धा। सः अवदत् यत् अतिरिक्तानि आसनानि अपि समाविष्टानि सन्ति येन योग्यानां अभ्यर्थिनां कृते अधिकाः अवसराः उपलप्स्यन्ते। अभ्यर्थिनः परामर्श प्रक्रियायां भागं गृहीत्वा तदनुसारं स्वेच्छाम् आचरन्तु इति निदेशालयः अकथयत्। अधिकविवरणानि चिकित्सा परामर्श समित्या संजालपुटे उपलभ्यन्ते। प्रधानमंत्री नरेन्द्र मोदी अद्य अरब देशानां विदेशमन्त्रिणां अरब लीग इत्यस्य महासचिवस्य अरब प्रतिनिधिमण्डल प्रमुखानां च एकेन प्रतिनिधिमण्डलेन सह मेलनम् अकरोत्, यत् भारत अरब विदेश मन्त्रिणां उपवेशनाय नवदिल्ल्याम् अस्ति। उपवेशनावधौ प्रधानमन्त्रिणा भारत अरब राष्ट्रयोः मध्ये सुदृढ ऐतिहासिक सम्बन्धेषु बलं प्रदत्तम्। प्रधानमन्त्रिणा मोदिना फिलिस्तीनस्य नागरिकेभ्य भारतस्य निरन्तरं समर्थनं पुनरुच्चारितवान्। सहैव गाजा शान्ति योजना सहितं प्रवर्तमानाः शान्ति प्रयासाः अपि भारतेन समर्थिताः। सः क्षेत्रीय शान्त्यै स्थिरतायै च प्रयासानां समर्थनं कर्तुम् अरब समूहेन निभालितायाः महत्वपूर्ण भूमिकायाः अपि प्रशंसाम् अकरोत्। पुरुषाणां क्रिकेट क्रीडायाम् अद्य सायंकाले तिरुवनन्तपुरम् नगरस्य ग्रीनफील्ड अन्ताराष्ट्रिय क्रीडांगणे 5व्याम् अन्तिमायां च T20 अन्ताराष्ट्रिय क्रीडायां भारतीय क्रिकेट दलं न्यूजीलैंड दलेन सह क्रीडिष्यति। क्रीडा एषा सायं 7 वादने आरप्स्यते। मुख्यवार्ता पुनरेकदा। नवदिल्ल्यां भारत अरब विदेशमन्त्रिणां द्वितीयं उपवेशनं प्रचलति। भारत यूरोप मुक्त व्यापार संधिना यूरोप संघं प्रति भारतस्य निर्यातः 5 वर्षेषु द्विगुणितं भवितुं शक्यते इति प्रोक्तवान् पीयूष गोयलः। देशे 25 कोट्यधिकानि मृदा स्वास्थ्य पत्राणि कृषकेभ्य प्रदत्तानि। मृत्तिकायां पोषक तत्वानां क्षय निवारणार्थं 15-2000 योजना समारब्धा आसीत् इति वार्ताः।